स्मृधीरायन्द्रह्वयामसित्वा संयद्विषोऽयम् दसूरसाता उग्रम् नो वह्पाजे अहम् दाः त्वाम् वाजीहवते वाजिनेयो महो वाजस्य गध्यस्य सातौ त्वमाम् रत्रेष्मिन् दसत्वतिम् तरुत्रम् त्वाम् चष्टे मुष्टिहागोषु युध्यन् त्वम् कविम् चोदयोर्कसादौ त्वम् कृष्णम् दाधुषे वक् तम् शिरो अमर्मणः पराहन्नदिजिग्वायसंस्यम् करिष्यन् तम् रथम् प्रभारो योधमृष्णमावो युध्यम् तम् वृषभम् दसद्युम् त्वम् दुग्रम् वेदस वेदचाहन् त्वम् सुजिम् गृणन्तमिन्द्रदूतोः त्वम् तदुःखमिन्द्रबर्हणागः प्रयच्छता सहस्रासूरदर्षि अपगिरेर्दासम् संवारम् हन्त्राभो दिवो दासम् चित्राभिरुदि तम् श्रद्धाभिर्मन्दसारस्वमेयस्तभीतये च भूरिमिन्द्रशिष्वप् त्वम् रजिम् पिठीन सेदसस्यम् शक्यम् सहस्रासच्चासाहन् अहम् च न तत्सूरिभिरानस्याम् तपद्याय इन्द्रसुम्नमोजाः त्वया यत्स्तवन्ते सधवीरवीरास्त्रिवरूथेन लहूडादविष्ट भयन्ते अस्यामिन्द्रद्युम् नहूतौ यस्याममहिनप्रेष्ठाः प्रादर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणाम् सनयेधनानाम्